मन्त्रपुष्पम्
योपां पुष्पम् वेद पुष्पवान् प्रजावान् वशुमान् भवति चन्द्रमा वा अपां पुष्पम् पुष्पवान् प्रजावान् वशुमान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति
अग्निर्वा अपामायतन
आयतनवान् भवति
योऽग्नेरायतनम् वेद
आयतनवान् भवति
आपो वा अग्नेरायतन
आयतनवान् भवति
एवम् वेद योऽपामायतनम् वेद
आयतनवान् भवति
वायुर्वा अपामायतन
आयतनवान् भवति
यो वायोरायतनम् वेद
आयतनवान् भवति
आपो वै वायोरायतन
आयतनवान् भवति
एवम् वेद योऽपामायतनम् वेद
आयतनवान् भवति
असो वै तपन्नपामायतन
आयतनवान् भवति
यामश्यतपदहायतनम् वेद
आयतनवान् भवति
आपो वा अमुष्यतपदहायतन
आयतनवान् भवति
य एवम् वेद योऽपामायतनम् वेद
आयतनवान् भवति
चन्द्रमा वा अपामायतन
आयतनवान् भवति
यश्चन्द्रमसहायतनम् वेद
आयतनवान् भवति
आपो वै चन्द्रमसहायतन
आयतनवान् भवति
य एवम् वेद योऽपामायतनम् वेद
आयतनवान् भवति
नक्षत्राणि वा अपामायतन
आयतनवान् भवति
यो नक्षत्राणामायतनम् वेद
आयतनवान् भवति
आपो वै नक्षत्राणामायतन
आयतनवान् भवति
एवम् वेद योऽपामायतनम् वेद
आयतनवान् भवति
पर्जन्यो वा अपामायतन
आयतनवान् भवति
या पर्जन्यस्यागतनम् वेद
आयतनवान् भवति
आपो वै पर्जन्यस्यागतन
आयतनवान् भवति
एवम् वेद योऽपामायतनम् वेद
आयतनवान् भवति
संवत्सरो वा अपामायतन
आयतनवान् भवति
संवत्सरस्यागतनम् वेद
आयतनवान् भवति
आपो वै संवत्सरस्यागतन
आयतनवान् भवति
एवम् वेद योऽप्सुनापम् प्रतिष्ठिताम् वेद प्रात्येव तिष्ठति
राजाधिराजाय प्रसज्ञसाहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः यो वेदादौ स्वरप्रोक्तो वेदान्देय प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स्वमहेश्वरः